श्री गणेशाय नमः। अथ देव्याः कवचम् विनियोगः। ओम अस्य श्री चंडी कवचस्य ब्रह्मा ऋषिः अनुष्टुप छन्दः चामुंडा देवता अंगन्यासोक्त मातरो बीजम् दिग्बंध देवतास्तत्त्वम् श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठांगत्वेन जपे विनियोगः। ओम नमश्चंडिकायै मारकंडेय उवाच। ओम यद्गुह्यं परमं लोके सर्वरक्षाकरं निर्णाम यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह। ब्रह्मोवाच अस्ति गुह्यतमं विप्र सर्वभूतोपकारकं देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने। प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चंद्रघंटेति कूष्मांडेति चतुर्थकं पंचमं अस्कंदमातेति षष्ठं कात्यायनीति च सप्तमं कालरात्रीति महागौरीति चाष्टकं नवमं सिद्धिदात्री च नव दुर्गाः प्रकीर्तिताः। उक्तान्येतानि नामानि ब्रह्मणैव महात्मना। अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे विषमे दुर्गमे चैव भयार्ताः शरणं गताः। न तेषां जायते किञ्चिद् शुभं रणसंकटे नापदं तस्य पश्यामि शोकदुःखभयं नहि। यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते ये त्वां स्मरन्ति देवेशि रक्षसे तान्न संशयः। प्रेतसंस्था तु चामुण्डा वाराही महिषासना ऐन्द्री गजसमारूढा वैष्णवी गरुणासना माहेश्वरी वृषारूढा कौमारी शिखिवाहना लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया श्वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मी हंससमारूढा सर्वाभरणभूषिता। इत्येता मातरः सर्वाः सर्वयोगसमन्विताः नानाभरणशोभाड्या नानारत्नोपशोभिताः। दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधं खेटकं तोमरं चैव परशुं पाशमेव च कुन्तायुधं त्रिशूलं च शारङ्गमायुधमुत्तमम्। दैत्यानां देहनाशाय भक्तानां भयाय च धारयन्त्यायुधानीत्थं देवानां च हिताय वै। नमस्तेस्तु महारौद्रे महाघोरपराक्रमे महाबलि महोत्साहे महाभयविनाशिनि। त्राहिमां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि। प्राच्यां रक्षतु मामेन्द्री आग्नेयामग्निदेवता। दक्षिणेवतु वाराही नैऋत्यां खड्गधारिणी। प्रतीच्यां वारुणी रक्षेत् वायव्यां मृगवाहिनी। उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी। ऊर्ध्वं ब्रह्माणि मे रक्षेत् धस्ताद्वैष्णवी तथा। एवं दश दिशो रक्षेत् चामुण्डा शववाहना। जया मे चाग्रतः पातु विजया पातु पृष्ठतः। अजिता वाम पार्श्वे तु दक्षिणे चापराजिता। शिखा मुद्योतिनी रक्षेत् दुमामूर्ध्नि व्यवस्थिता। मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी। त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके। शंखिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी कपोलौ कालिका रक्षेत् कर्णमूले तु शांकरी नासिकायां सुगंधा च उत्तरोष्ठे च चर्चिका अधरे चामृतकला जिह्वायां च सरस्वती दन्तान् रक्षतु कौमारी कंठदेशे तु चंडिका घंटिकां चित्रघंटा च महामाया च तालुके कामाक्षी चिबुकं रक्षेत् द्वाचं मे सर्वमंगला ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी नीलग्रीवा बहिः कंठे नलिकां नलकूबरी स्कंधयोः खड्गिनी रक्षो द्वाहू मे वज्रधारिणी हस्तयोर्दंडिनी रक्षेत् अंबिका चांगुलीषु च नखांचूलेश्वरी रक्षेत् कुच्छौ रक्षेत् कुलेश्वरी स्तनौ रक्षेन्महादेवी मनः शोक विनाशिनी हृदये ललिता देवी उदरे शूलधारिणी नाभौ च कामिनी रक्षेत् गुह्यं गुह्येश्वरी तथा पूतना कामिका मेढ्रं गुदे महिषवाहिनी कट्यां भगवती रक्षेत् जानुनी विंध्यवासिनी जंघे महाबला रक्षेत् सर्वकामप्रदायिनी गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी पादांगुलीषु श्रीरक्षेत् पादाधस्तलवासिनी नखांदंशाकराली च केशांशैवोर्ध्वकेशिनी रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा रक्तमज्जावसामासान्यस्थिमेदांसि पार्वती अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी पद्मावती पद्मकोशे कफे चूड़ामणिस्तथा ज्वालामुखी नखज्वालामभेद्या सर्वसंधिषु शुक्रं ब्रह्माणि मे रक्षेच्छायां छत्रेश्वरी तथा अहंकारं मनोबुद्धिं रक्षेन्मे धर्मधारिणी प्राणापानौ तथा व्यान मुदानं च समानकं वज्रहस्ता च मे रक्षेत् प्राणं कल्याणशोभना रसे रूपे च गंधे च शब्दे स्पर्शे च योगिनी सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा आयो रक्षतु वाराही धर्मं रक्षतु वैष्णवी यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी गोत्रमिन्द्राणि मे रक्षेत् पशून् मे रक्ष चंडिके पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा राजद्वारी महालक्ष्मीर्विजया सर्वतः स्थिता रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवी जयन्ती पापनाशिनी पदमेकं न गच्छेत्तु यदिच्छेच्छुभमात्मनः कवचेनावृतो नित्यं यत्र यत्रैव गच्छति तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं परमैश्वर्यमतुलं प्राप्यते भूतले पुमान् निर्भयो जायते मर्त्यः संग्रामेश्वपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेनावृतः पुमान् इदं तु देव्याः कवचं देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः दैवी कला भवेत् तस्य त्रैलोक्येश्वपराजितः जीवेद्वर्षशतं साग्रम् अपमृत्युविवर्जितः नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः स्थावरं जंगमं चैव कृत्रिमं चापि यद्विषम् अभिचाराणि सर्वाणि मंत्रयंत्राणि भूतले भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः सहजा कुलजा माला डाकिनी शाकिनी तथा अंतरिक्षचरा घोरा डाकिन्यश्च महाबलाः ग्रहभूत पिशाचाश्च यक्ष गंधर्व राक्षसाः ब्रह्म राक्षस वीतालाः कुष्मांडा भैरवादयः नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते मानोन्नतिर्भवेद्राज्ञस्तेजो वृद्धिकरं परम् यशसा वर्धते सोऽपी कीर्तिमण्डित भूतले जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा यावद्भूमण्डलं धत्ते स शैलवनकाननम् तावत् तिष्ठति मेदिन्यां संततिः पुत्रपौत्रिकी देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः लभते परमं रूपं शिवेन सह मोदते इति श्री देव्याः कवचं सम्पूर्णम्। श्री अर्गलास्तोत्रम् ओम अस्य श्री अर्गलास्तोत्र मंत्र विष्णु ऋषिः अनुष्टुप छन्दः श्री महालक्ष्मीः देवता श्री जगदम्बा प्रीतये सप्तशती पाठांगत्वेन जपे विनियोगः। ओम नमः चण्डिकायै। मार्कण्डे उवाच ओम जयंती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोस्तुते जय त्वं देहि चामुंडे जय भूतार्तिहारिणी जय सर्वगते देवी कालरात्रि नमोस्तुते मधुकैटभ विद्रा विविधात्रि वरदे नमः रूपं देहि जयं देहि यशो देहि द्विषो जहि महिषासुर निर्णाशि भक्तानां सुखदे नमः रूपं देहि जयं देहि यशो देहि द्विषो जहि रक्तबीज वधे देवी चंडमुंड विनाशिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि शुंभस्यैव निशुंभस्य धूम्राक्षस्य च मर्दिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि वन्दिताङ्घ्रियुगे देवि सर्वसौभाग्यदायिनी रूपं देहि जयं देहि यशो देहि द्विषो जहि अचिन्त्यरूपचरिते सर्वशत्रुविनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे रूपं देहि जयं देहि यशो देहि द्विषो जहि स्तुवद्भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः रूपं देहि जयं देहि यशो देहि द्विषो जहि देहि सौभाग्यमारोग्यं देहि मे परमं सुखं रूपं देहि जयं देहि यशो देहि द्विषो जहि विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः रूपं देहि जयं देहि यशो देहि द्विषो जहि विधेहि देवि कल्याणं विधेहि परमां श्रियं रूपं देहि जयं देहि यशो देहि द्विषो जहि सुरासुर शिरोरत्न निघृष्ट चरणेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विषो जहि विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु रूपं देहि जयं देहि यशो देहि द्विषो जहि प्रचंड दैत्य दर्पघ्ने चंडिके प्रणताय मे रूपं देहि जयं देहि यशो देहि द्विषो जहि चतुर्भुजे चतुर्वक्त्र संस्तुते परमेश्वरि रूपं देहि जयं देहि यशो देहि द्विषो जहि कृष्णेन संस्तुते देवी शश्वद्भक्त्या सदाम्बिके रूपं देहि जयं देहि यशो देहि द्विषो जहि हिमाचल सुतानाथ संस्तुते परमेश्वरि रूपं देहि जयं देहि यशो देहि द्विषो जहि इंद्राणी पति सद्भाव पूजिते परमेश्वरि रूपं देहि जयं देहि यशो देहि द्विषो जहि देवि प्रचंड दूर्दंड दैत्य दर्प विनाशिनि रूपं देहि जयं देहि यशो देहि द्विषो जहि देवि भक्त जनोद्दाम दत्तांदोन्दयेऽम्बिके रूपं देहि जयं देहि यशो देहि द्विषो जहि पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीं तारिणीं दुर्ग संसार सागरस्य कुलोद्भवाम् इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः स तु सप्तशती संख्या वरमाप्नोति संपदाम् इति देव्या अर्गलास्तोत्रं सम्पूर्णम्। अथ कीलकम्। ओम अस्य श्री कीलक मंत्रस्य शिव ऋषि अनुष्टुप छंदः श्री महासरस्वती देवता श्री जगदम्बा प्रीत्यर्थं सप्तशती पाठांगत्वेन जपे विनियोगः। ओम नमश्चंडिकायै मार्कंडेय उवाच। ओम विशुद्ध ज्ञान देहाय त्रिवेदी दिव्य चक्षुषे श्रेयः प्राप्ति निमित्ताय नमः सोमार्धधारिणे। सर्वमेतद्विजानीयान् मन्त्राणामभिकीलकम् सोऽपि क्षेममवाप्नोति सततम् जाप्य तत्परः। सिद्धयन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि एतेन स्तुवताम् देवि स्तोत्रमात्रेण सिद्धयति। न मन्त्रो नौषधम् तत्र न किञ्चिदपि विद्यते विना जाप्येन सिद्धयेत् सर्वमुच्चाटनादिकम्। समग्राण्यपि सिद्धयन्ति लोकशङ्कामिमाम् हरः कृत्वा निमन्त्रयामास सर्वमेवमिदम् शुभम्। स्तोत्रम् वैचण्डिकायास्तु तच्च गुप्तम् चकारसः समाप्तिर्न च पुण्यस्य ताम् यथा वन्नियन्त्रणाम्। सोऽपि क्षेममवाप्नोति सर्वमेवम् न संशयः कृष्णायाम् वा चतुर्दश्याम् अष्टम्याम् वा समाहितः। ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति इत्थम् रूपेण कीलेन महादेवेन कीलितम्। यो निष्कीलाम् विधायैनाम् नित्यम् जपति संस्फुटम् स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः। न चैवाप्यटतस्तस्य भयम् क्वापीह जायते नापमृत्युवशम् याति मृतो मोक्षमवाप्नुयात्। ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति ततो ज्ञात्यैव सम्पन्नमिदम् प्रारभ्यते बुधैः। सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने तत्सर्वम् तत्प्रसादेन तेन जाप्यमिदम् शुभम्। शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः भवत्येव समग्रापि ततः प्रारभ्यमेव तत् ऐश्वर्यम् यत्प्रसादेन सौभाग्यारोग्य संपदः शत्रुहानि परो मोक्षः स्तूयते सानकिं जनैः ओम इति देव्याः कीलक स्तोत्रम् संपूर्णम्। अथ श्री दुर्गा सप्तशती प्रथमो अध्यायः विनियोगः। ओम प्रथम चरित्रस्य ब्रह्मा ऋषिः महाकाली देवता गायत्री छन्दः नन्दाशक्तिः रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदः स्वरूपम् श्रीमहाकाली प्रीत्यर्थे प्रथमचरित्रजपे विनियोगः। ध्यानम् ओम खड्गम् चक्रगदेषु चापपरिघाञ्छूलम्भुशूण्डीम् शिरः शङ्खम् सन्दधतीम् करैस्त्रिनयनाम् सर्वाङ्गभूषावृताम् नीलाश्माद्युतिमास्य पाददशकाम् सेवे महाकालिकाम् यामस्तौस्त्वपिते हरौ कमलजो हन्तुम् मधुम् कैटभम्। ओम् नमश्चण्डिकायै। ओम् ऐं मार्कण्डेय उवाच सावर्णिः सूर्यतनयो यो मनुः कथ्यतेष्टमः निशामय तदुत्पत्तिम् विस्तराद्गदतो मम महामायानुभावेन यथा मन्वन्तराधिपः स बभूव महाभागः सावर्णिस्तनयो रवेः स्वारोचिषेन्तरे पूर्वम् चैत्रवंशसमुद्भवः सुरथो नाम राजा भूत्समस्ते क्षितिमण्डले तस्य पाले अतः सम्यक् प्रजाः पुत्रा निवौरसान् बभूवुः शत्रवो भूपाः कोला विध्वंसिनस्तदा तस्य तैरभवद्युद्धम् अतिप्रबलदण्डिनः न्यूनैरपि स तैर्युद्धे कोला विध्वंसिभिर्जितः ततः स्वपुरो मायातु निजदेशाधिपो भवत् आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः कोशो बलम् चापहृतम् तत्रापि स्वपुरे ततः ततो मृगया व्याजेन हृतस्वाम्यः स भूपतिः एकाकी हयमारुह्य जगाम गहनम् वनम् स तत्राश्रममद्राक्षीत् द्विजवर्यस्य मेधसः प्रशान्तश्वापदाकीर्णम् मुनिशिष्योपशोभितम् तस्थौ कञ्चित् सकालम् च मुनिना तेन सत्कृतः इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे सोचिन्त्य यत्तदा तत्र ममत्वाकृष्टचेतनः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हि तत् मदभृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा न जाने स प्रधानो मे शूरहस्ति सदा मदः मम वैरिवशम् यातः कानभोगानुपलभ्यते ये ममानुगता नित्यम् प्रसादधनभोजनैः अनुवृत्तिम् ध्रुवम् तेद्य कुर्वन्त्यन्यमहीभृताम् असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततम् व्ययम् सञ्चितः सोति दुःखेन क्षयम् कोशो गमिष्यति एतच्चान्यच्च सततम् चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकम् ददर्श सः स पृष्टस्तेन कस्त्वम् भो हेतुश्चागमनेत्रकः सशोक इव कस्मात्त्वम् दुर्मना इव लक्ष्यसे इत्याकर्ण्यवचस्तस्य भूपतेः प्रणयोदितम् प्रत्युवाच स तम् वैश्यः प्रश्रया वनतो नृपम्। वैश्य उवाच समाधिर्नाम वैश्योऽहम् उत्पन्नो धनिनाम कुले पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् वनम् अभ्यागतो दुखी निरस्तश्चाप्तबन्धुभिः सोऽहं न वेद्मि पुत्राणाम् कुशलाकुशलात्मिकाम् प्रवृत्तिम् स्वजनानाञ्च दाराणाम् चात्र संस्थितः किन्नु तेषाम् गृहे क्षेम मक्षेमम् किन्नु साम्प्रतम् कथम् ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः राजोवाच यैर्निरस्तो भवान् लुब्धैः पुत्रदारादिभिर्धनैः तेषु किम् भवतः स्नेहम् अनुबध्नाति मानसम् वैश्य उवाच एवमेतद्यथा प्राह भवानस्मदगतम् वचः किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्य पितृस्नेहम् धनलुब्धैर्निराकृतः पतिस्वजनहार्दम् च हार्दितेष्वेव मे मनः किमेतन्नाभिजानामि जानन्नपि महामते यत्प्रेम प्रवणम् चित्तम् विगुणेष्वपि बन्धुषु तेषाम् कृते मे निःश्वासु दौर्मनस्य च जायते करोमि किम् यन्न मनस्तेष्व प्रीतिषु निष्ठुरम् मार्कण्डेय उवाच ततस्तौ सहितौ विप्र तम् मुनिम् समुपस्थितौ समाधिर्नाम वैश्योऽसौ स च पार्थिव सत्तमः कृत्वा तूतौ यथा न्यायम् यथार्हम् तेन संविदम् उपविष्टौ कथाः काश्चिचक्रतुर्वैश्य पार्थिवौ राजोवाच भगवंस्त्वामहम् प्रष्टुम् इच्छाम्येकम् वदस्व तत् दुःखाय यन्मे मनसः स्वचित्तायत्यताम् विना मम त्वम् गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्त्वम् अयम् च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः स्वजनेन च सन्त्यक्त तेषु हार्दी तथाप्यति एवमेष तथाहम् च द्वावप्यत्यन्तदुःखितौ दृष्टिदोषेऽपि विषये ममत्वाकृष्टमानसौ तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ममस्या च भवत्येषा विवेकान्धस्य मूढता ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे विषयश्च महाभाग याति चैवम् पृथक् पृथक् दिवान्धा प्राणिनः केचित् द्रात्रावन्धास्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनो मनुजाः सत्यम् किम् तु ते न हि केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानम् च तन्मनुष्याणाम् यत्तेषाम् मृगपक्षिणाम् मनुष्याणाम् च यत्तेषाम् तुल्यमन्यत्तथोभयोः ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु कणमोक्षादृतान् मोहात् पीड्यमानानपि क्षुधा मानुषा मनुजव्याघ्र साभिलाषासुतान् प्रति लोभात् प्रत्युपकाराय नन्वेतान् किन्न पश्यसि तथापि ममतावर्ते मोहगर्ते निपातिताः महामाया प्रभावेण संसारस्थितिकारिणा तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः महामाया हरिश्चैषा तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवती हिसा बलादाकृष्य मोहाय महामाया प्रयच्छति तया विसृज्यते विश्वं जगदेतच्चराचरम् सैषा प्रसन्ना वरदा नृणां भवति मुक्तये सा विद्या परमा मुक्तिर् हेतुभूता सनातनी संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी राजोवाच भगवन् का हि सा देवी महामायेति यां भवान् ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज यत्प्रभावाच सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वं श्रोतिमिक्षामि त्वत्तो ब्रह्म वेदाम्बरः ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् तथापि तत्समुत्पत्तिर्बहुधा श्रूयताम् मम देवानाम् कार्यसिद्ध्यर्थम् आविर्भवति सा यदा उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते योगनिद्राम् यदा विष्णुर्जगत्ये कारणवीकृते आस्तीर्यशेषमभजत् कल्पान्ते भगवान् प्रभु तदा द्वावसुरौ भूरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुम् ब्रह्माणमुद्यत्तौ सनाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तम् च जनार्दनम् तुष्टावयोगनिद्राम् ताम् एकाग्रहृदयस्थितः विबोधनार्थाय हरिर्हरिनेत्रकृतालयाम् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणीम् निद्राम् भगवतीम् विष्णोर्तुलाम् तेजसः प्रभुः ब्रह्मोवाच त्वम् स्वाहा त्वम् स्वधा त्वम् हि वषट्कारस्वरात्मिका सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः त्वमेव सन्ध्या सावित्री त्वम् देवि जननी परा त्वयैतद्धार्यते विश्वम् त्वयैतत्सृज्यते जगत् त्वयैतत्पाल्यते देवी त्वमत्यन्ते च सर्वदा विसृष्टौ सृष्टिरूपा त्वम् स्थितिरूपा च पालने तथा संहृतिरूपान्ते जगतोऽस्य जगन्मयी महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवती महादेवी महासुरी प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वम् श्रीस्त्वमीश्वरी त्वम् ह्रीम् स्त्वम् बुद्धिर्बोधलक्षणा लज्जा पुष्टि तथा तुष्टिस्त्वम् शान्ति शान्तिरेव च खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभुषुण्डी परिघायुधा सौम्या सौम्यतराशेष सौम्येभ्यस्त्वति सुन्दरी परापराणाम् परमात्वमेव परमेश्वरी यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाखिलात्मिके तस्य सर्वस्य या शक्तिः सा त्वम् किम् स्तूयसि तदा यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् सोऽपि निद्रावशम् नीतः कस्त्वाम् स्तोतुमिहेश्वरः विष्णुः शरीरग्रहणम् हमीशान् एव च कारितास्ते यतो तस्त्वाम् कः स्तोतुम् शक्तिमान् भवेत् सा त्वमित्थम् प्रभावैः स्वैरुदारैर्देवि संस्तुता मोहयैतौ दुराधर्षा वसुरो मधुकैटभौ प्रबोधं च जगत्स्वामी नियतामच्युतो लघु बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ। ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा। विष्णोः प्रबोधनार्थाय निहन्तुम् मधुकैटभौ नेत्रास्य नासिका बाहु हृदयेभ्यस्तथोरसः। निर्गम्य दर्शने तस्थौ ब्रह्मणो व्यक्तजन्मनः उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः। एकार्णवेहि शयनात्व ततः स ददृशे च तौ मधुकैटभौ दुरात्मान वतिवीर्य पराक्रमौ। क्रोधरक्ते क्षणावत्तुम् ब्रह्माणम् जनितोद्यमौ समुत्थाय ततस्ताभ्याम् युयुधे भगवान् हरिः। पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः तावप्यते बलोन्मत्तौ महामायाविमोहितौ। उक्तवन्तौ वरोऽस्मत्तु व्रियतामिति केशवम्। श्रीभगवानुवाच भवेतामद्य मे तुष्टौ मम बद्ध्वा बुभावपि किमन्येन वरेणात्र एतावद्धि वृतम् मम। ऋषिरुवाच वञ्चिताभ्यामिति तदा सर्वमापोमयम् जगत्। विलोक्यताभ्याम् गदितो भगवान् कमले क्षणः आवाम् जहिनयत्रोर्वी सलिलेन परिप्लुता। ऋषिरुवाच यथेत्तुक्त्वा भगवता शङ्खचक्रगदावृता कृत्वा चक्रेण वैच्छिन्ने जघने शिरसि तयोः। एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् प्रभावमस्यादेव्यास्तु भूयः शृणु वदामि ते। ऐं ओम् इति मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये मधुकैटभ वधूनाम् प्रथमोऽध्यायः। अथ श्री दुर्गा सप्तशती द्वितीयो अध्यायः विनियोगः। ओम मध्यमचरित्रस्य विष्णुर्ऋषिः महालक्ष्मीर्देवता उष्णिक छन्दः शाकंभरी शक्तिः। दुर्गाबीजम् वायुस्तत्त्वम् यजुर्वेदः स्वरूपम् श्रीमहालक्ष्मी प्रीत्यर्थम् मध्यमचरित्रजपे विनियोगः। ध्यानम् ओम अक्षस्त्रकपरशुम् गदेषु कुलिशम् पद्मम् धनुष्कुण्डिकाम् दण्डम् शक्तिमसिम् च चरम जलजम् घण्टाम् शुराभाजनम् शूलम् पाशसुदर्शने च दधतीम् हस्तैः प्रसन्नाननाम् सेवे सैरिभमर्दिनीमिह महालक्ष्मीम् सरोजस्थिताम्। ॐ ह्रीम् ऋषिरुवाच देवासुरम् भोज्युद्धम् पूर्णमब्दशतम् पुरा महिषेसुराणामधिपे देवानाम् च पुरन्दरे। तत्रासुरैर्महावीर्यैर्देवसैन्यम् पराजितम् जित्वा च सकलान् देवान् इन्द्रो भून्महिषासुरः। ततः पराजिता देवाः पद्मयोनिम् प्रजापतिम् पुरस्कृत्य गतास्तत्र यत्रेष गरुणध्वजौ। यथावृतम् तयोस्तद्वन् महिषासुरचेष्टितम् त्रिदशाः कथयामासुर् देवाभिभव विस्तरम् सूर्य इन्द्राग्न्य निलेन्दूनाम् यमस्य वरुणस्य च अन्येषाम् चाधिकारांस स्वयमेवाधितिष्ठति स्वर्गान् निराकृताः सर्वे तेन देवगणा भुवि विचरन्ति यथा मर्त्या महिषेण दुरात्मना एतद्वह कथितं सर्वं मरारि विचेष्टितं शरणं वह प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् इत्थं निशम्य देवानां वचांसि मधुसूदनः चकार कोपं शम्भुश्च भ्रुकुटी कुटिलाननौ ततोति कोपपूर्णस्य चक्रिणो वदनात्ततः निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च अन्येषाम् चैव देवानाम् शक्रादीनाम् शरीरतः निर्गतम् सुमहत्तेजस्तच्चैक्यम् समगच्छत अतीव तेजसः कूटम् ज्वलन्तमिव पर्वतम् ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् अतुलम् तत्र तत्तेजः सर्वदेव शरीरजम् एकस्थम् तदभून्नारी व्याप्तलोकत्रयम् त्विषा यदभूच्छाम्भवम् तेजस्तेनाजायत तन्मुखम् याम्येन चाभवन् केशा बाहवो विष्णुतेजसा सौम्येन स्तनयोर्युग्मम् मध्यम् चैन्द्रेण चाभवत् वारुणेन च जङ्घोरु नितम्बस्तेजसा भुवः ब्रह्मणस्तेजसा पादौ तदङ्गुल्योऽर्कतेजसा वसूनाम् च कराङ्गुल्यः कौबेरेण च नासिका तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा नयनत्रितयम् जज्ञे तथा पावक तेजसा भ्रुवौ च सञ्जयोस्तेजः श्रमणावनिलयस्य च अन्येषाम् चैव देवानाम् सम्भवस्तेजसाम् शिवा ततः समस्तदेवानाम् तेजोराशिसमुद्भवाम् ताम् विलोक्यमुदम् प्रापु रमरा महिषार्दिताः शूलम् शूलाद्विनिष्कृष्य ददौ तस्यै पिनाघ्रिक चक्रम् च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः शङ्खम् च वरुणः शक्तिम् ददौ तस्यै हुताशनः मारुतो दत्तवांशापम् बाणपूर्णे तथेषुधि वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् कालदण्डाद्यमोदण्डम् पाशम् चाम्बुपतिर्ददौ प्रजापतिश्चाक्षमालाम् ददौ ब्रह्माकमण्डलुम् समस्तरोमकूपेषु निजरश्मीन दिवाकरः कालश्च दत्तवान् खड्गम् तस्याश्चरम च निर्मलम् क्षीरोदश्चामलम् हारम् अजरे च तथाम्बरे चूडामणिम् तथा दिव्यम् कुण्डले कटकानि च अर्धचन्द्रम् तथा शुभ्रम् केयूरान् सर्वबाहुषु नूपुरौ विमलौ तद्वत् ग्रैवेयकमनुत्तमम् अङ्गुलीयत्करत्नानि समस्तास्वङ्गुलीषु च विश्वकर्मा ददौ तस्यै परशुम् चातिनिर्मलम् अस्त्राण्यनेकरूपाणि तथा भेद्यम् च दंशनम् अम्लान् पङ्कजाम् मालाम् शिरस्युरसि चापराम् अददज्जलधिस्तस्यै पङ्कजम् चातिशोभनम् हिमवान् वाहनं सिंहं रत्नानि विविधानि च ददावशून्यं सुरया पानपात्रं धनाधिपः शेषश्च सर्वनागेषु महामणिविभूषितं नागहारं ददौ तस्यै धत्ते यः पृथिवीं इमाम् अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा सम्मानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः तस्यानादेन घोरेण कृत्नमापूरितं नभः अमायतातिमहता प्रतिशब्दो महान् भूत चक्षुभुः सकलालोकाः समुद्राश्च च कम्पिरे चचालवसुधा चेलुः सकलाश्च महीधरा जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् तुष्टुवुर्मुनयश्चैनाम् भक्तिनम्रात्ममूर्तयः दृष्ट्वा समस्तम् संक्षुब्धम् त्रैलोक्यममरारयः सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः आह किमेतदिति क्रोधा दाभास्य महिषासुरः अभ्यधावत तम् शब्दम् शेषैरसुरैर्वृतः स ददर्श ततो देवीम् व्याप्तलोकत्रयाम् त्विषा पादाक्रान्त्या नतभुवम् किरीटोल्लिखिताम्बराम् क्षोभिता शेषपातालाम् धनुर्ज्ञानिः स्वनेन ताम् दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ततः प्रववृते युद्धम् तया देव्यासुरद्विषाम् शस्त्रास्त्रैर्बहुधा मुक्तैरदीपितदिगन्तरम् महिषासुरसेनानीशि चक्षुराख्यो महासुरः युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः रथानाम युतैः षड्भिर् उदग्राख्यो महासुरः अयुध्यतायुतानां च सहस्रेण महाहनुः पञ्चाशद्भिश्च नियुतैः असिलो मा महासुरः अयुतानां शतैः षड्भिर्बाष्कलो युयुधे रणे गजवाजिसहस्रौघैः अनेकैः परिवारितः वृतो रथानां कोट्या च युद्धे तस्मिन्न युध्यत विडालाख्यो युतानां च पञ्चाशद्भिरुथायुतैः युयुधे संयुगे तत्र रथानां परिवारितः अन्ये च तत्रायुतशु रथनागहयैर्वृताः युयुधुः संयुगे देव्या सह तत्र महासुराः कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा हयानां च वृतो युद्धे तत्राभून्महिषासुरः तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः केचिच्च चिक्षिपुः शक्तिः केचित् पाशांस्तथा परे देवीम् खड्गप्रहारैस्तु ते ताम् हन्तुम् प्रचक्रमुः सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी अनायस्तानना देवी स्तूयमाना सुरर्षिभिः मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी सोऽपि क्रुद्धो धुतसटो देव्यावाहनकेसरी चचारासुरसैन्येषु वनेष्विषहुताशनः निःश्वासान्मुमुचेयांश्च युध्यमानारणेऽम्बिका त एव सद्यः सम्भूता गणाः शतसहस्रशः युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिषैः नाशयन्तो सुरगणान् देवी शक्त्युपबृंहिताः अवादयन्तपटहान् गणाः शङ्खास्तथा परे मृदङ्गाश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः खड्गादिभिश्चिशतशु निजघान् महासुरान् पातयामास चैवान्यान् घण्टास्वनविमोहितान् असुरान् भुवि पाशेन बद्ध्वा चान्यान् कर्षयत् केचिद्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथा परि विपोथिता निपातेन गदया भुवि शेरति वेमुश्च केचिद्रुधिरम् मुसलेन भृशम् हताः केचिन्नीपतिता भूमौ भिन्नाः शूलेन वक्षसि निरन्तराः शरौघेण कृताः केचिद्रणाजिरे श्येनानुकारिणः प्राणान् मुमुचुस्त्रिदशार्दनाः केषाञ्चिद् बाहवश्छिन्नाश्छिन्नग्रीवास्तथा परि शिरांशिपेतुरन्येषाम् अन्ये मध्ये विदारिताः विच्छिन्न जङ्घास्त्वपरि पेतुरुर्व्याम् महासुराः एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः कबन्धायुयुधुर्देव्या गृहीत परमायुधा न नृतुश्चापरि तत्र युद्धे तूर्यलयाश्रिताः कबन्धाश्छिन्नशिरसः खड्गशक्तृष्टिपाणयः तिष्ठ तिष्ठेति भाषन्तु देवी मन्ये महासुराः पातितैरथनागाश्वैर्सुरैश्च वसुन्धरा अगम्यासा भवत्तत्र यत्राभूत्स महारणः शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्त्रुवुः मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् क्षणेन तन्महासैन्यमसुराणाम् तथाम्बिका निन्ये क्षयम् यथावहनिस्तृणदारुमहाचयम् स च सिंहो महानादम् उत्सृजन्धुतकेसरः शरीरेभ्यो मरारीणाम् असूनिव विचिन्वति देव्या गणयिष्यतैस्तत्र कृतम् युद्धम् महासुरैः तथैषाम् तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये महिषासुरसैन्यवधो नाम द्वितीयोऽध्यायः। अथ श्रीदुर्गा सप्तशती तृतीयो अध्यायः। ध्यानम्। ॐ उद्यद्भानुसहस्रकान्तिमरुणक्षौमां शिरोमालिकाम् रक्तालिप्तपयोधराम् जपवटीम् विद्यामभीतिम् वरम् हस्ताब्जैर्दधतीम् त्रिनेत्रविलसद्वक्त्रारविन्दश्रियम् देवीम् बद्धहिमांशुरत्नमुकुटाम् वन्देरविन्दस्थिताम्। ॐ ऋषिरुवाच निहन्यमानम् तत्सैन्यम् अवलोक्य महासुरः सेनानिश्चिक्षुरः कोपा ज्ययौ योद्धमुथाम्बिकाम् स देवीम् शरवर्षेण ववर्ष समरे सुरः यथा मेरुगिरेः शृङ्गम् तोयवर्षेण तोयदः तस्य चित्त्वा ततो देवी लीलयैव शरोत्करान् जघान्तुर्गान् बाणैर्यन्तारम् चैव वाजिनाम् चिच्छेद च धनुः सद्यो ध्वजम् चाति समुच्छ्रितम् विव्याध चैव गात्रेषु छिन्नधन्वानमाशुगैः सच्छिन्नधन्वाविरथो हताश्वो हतसारथिः अभ्यधावत ताम् देवी खड्गचर्मधरो सुरः सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि आजघान भुजे सव्ये देवीमप्यतिवेगवान् तस्याः खड्गो भुजम् प्राप्य पफाल नृपनन्दन ततो जग्राहशूलम् स कोपादरुणलोचनः चिक्षेप च ततस्तत्तु भद्रकाल्याम् महासुरः जाज्वल्यमानम् तेजोभिः रविबिम्बमिवाम्बरात् दृष्ट्वा तदापतक्षूलम् देवी शूलमुञ्चत तच्छूलम् शतधातेन नीतम् स च महासुरः हते तस्मिन्महावीर्ये महिषस्य चमूपतौ आजगाम गजारूढश्च चामरस्ति दशार्दनः सोऽपि शक्तिम् ममोचाथ देव्यास्तामम्बिकादृतम् हुङ्काराभिहताम् भूमौ पातयामास निष्प्रभाम् भाग्नाम् शक्तिनिपतिताम् दृष्ट्वा क्रोधसमन्वितः चिक्षेप चामरः शूलम् बाणैस्तदपि साक्षिणत् ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा युध्यमानौ ततस्तौ तु तस्मान्नागान्महीङ्गतौ युयुधातेति संरब्धौ प्रहारैरतिदारुणैः ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा करप्रहारेण शिरश्चः अमरस्य पृथक्कृतम् उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः दन्तमुष्टितलैश्चैव करालश्च निपातितः देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् वास्कलम् भिन्दिपालेन बाणैस्ताम्रम् तथान्धकम् उग्रास्यमुग्रवीर्यम् च तथैव च महाहनुम् त्रिनेत्रा च त्रिशूलेन जघान् परमेश्वरी विडालस्यासिनाकायात् पातयामास वैशिरः दुर्धरम् दुर्मुखम् चोभौ शरैर्निन्येयमक्षयम् एवम् संक्षीयमाणे तु स्वसैन्ये महिषासुरः माहिषेण स्वरूपेण त्रासयामास तान् गणान् कांश्चितुण्डप्रहारेण खुरक्षेपैस्तथा परान् लाङ्गूलताडितांशान्यान् शृङ्गाभ्याम् च विदारितान् वेगेन कांश्चिदपरान् नादेन भ्रमणेन च निःश्वासपवने नान्यान् पातयामास भूतले निपात्य प्रमथानीकमभ्यधावत सोऽसुरः सिंहम् हन्तुम् महादेव्याः कूपम् चक्रे ततोऽम्बिका सोऽपि कूपान् महावीर्यः खुरक्षुण्यमहीतलः श्रृङ्गाभ्याम् पर्वतानुच्चांशिक्षेपचननाद च वेगभ्रमणविक्षुण्णा महीतस्य व्यशीर्यत लाङ्गूले नाहतश्चाभिः प्लावयामास सर्वतः धुतशृङ्गविभिन्नाश्च खण्डम् खण्डम् ययुर्घनाः श्वासानिलास्ताः शतशो निपेतुर्नभसूचलाः इति क्रोधसमाध्वात् मापतन्तम् महासुरम् दृष्ट्वा सा चण्डिकाकूपम् तद्वधाय तदाकरोत् सक्षिप्त्वा तस्य वैपाशम् तम् बबन्ध महासुरम् तत्याज महिषम् रूपम् सोऽपि बद्धो महामृधे ततः सिंहो भवत् सद्यो यावत्तस्याम्बिका शिरः छिनत्ति तावत् पुरुषः खड्गपाणिर्दृश्यत तत एवाशु पुरुषम् देवी चिच्छेदसायकैः तम् खड्गचरमणा सार्धम् ततः सोऽभून्महागजः करेण च महासिंहम् तम् चकर्ष जगर्ज च कर्षतस्तु करम् देवी खड्गेन निरकृन्तत ततो महासुरो भूयो माहिषम् वपुरा स्थितः तथैव क्षोभयामास त्रैलोक्यम् सचराचरम् ततः क्रुद्धा जगन्माता चण्डिकापानमुत्तमम् पपौ पुनः पुनश्चैव जहासारुणलोचना ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः विशाळाभ्याम् च चिक्षेप चण्डिकाम् प्रतिभूधरान् सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः उवाच तम् मदोद्धूत मुखरागाकुलाक्षरम् देव्युवाच गर्ज गर्ज छणम् मूढ मधु यावत् पिबाम्यहम् मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ऋषिरुवाच एवमुक्त्वा समुत्पत्य सारूढा तम् महासुरम् पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः अर्धनिष्क्रान्त एवासीत् देव्या वीर्येण संवृतः अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः तया महासिना देव्या शिरश्चित्त्वा निपातितः ततो हाहा कृतम् सर्वम् दैत्यसैन्यम् ननाशतत् प्रहर्षम् च परम् जग्मुः सकला देवतागणाः तुष्टुवुस्ताम् सुरा देवीम् सह दिव्यैर्महर्षिभिः जगुर्गन्धर्वपतयो ननृतुश्चाप्सरूगणाः ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये महिषासुरवधूनाम् तृतीयो अध्यायः अथ श्री दुर्गा सप्तशती चतुर्थो अध्यायः ध्यानम् ओम् कालाभ्राभाम् कटाक्षैररिकुलभयदाम् मौलिबद्धेन्दुरेखाम् शङ्खम् चक्रम् कृपाणम् त्रिशिखमपि करैरुद्वहन्तीम् त्रिनेत्राम् सिंहस्कन्धाधिरूढाम् त्रिभुवनमखिलम् तेजसा पूरयन्तीम् ध्यायेद्दुर्गाम् जयाख्याम् त्रिदश परिवृताम् सेविताम् सिद्धिकामैः। ओम ऋषिरुवाच, शक्रादयः सुरगणा निहतेति वीर्ये तस्मिन् दुरात्मनि सुरारिवले च देव्या ताम् तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्ष पुलकोद्गमचारुदेहाः। देव्या यया ततमिदम् जगदात्मशक्त्या निःशेष देवगणशक्तिसमूहमूर्त्या तामम्बिकामखिल देवमहर्षि पूज्याम् भक्त्या नताः स्म विदधातु शुभानि सानः। यस्याः प्रभावमतुलम् भगवानन्तो ब्रह्माहरश्च न हि वक्तुमुलम् बलम् च। सा चण्डिकाखिल जगत्परिपालनाय नाशाय चाशुभभयस्य मतिम् करोतु। या श्रीः स्वयम् सुकृतिनाम् भवनेष्वलक्ष्मीः पापात्मनाम् कृतधियाम् हृदयेषु बुद्धिः। श्रद्धा सताम् कुलजनप्रभवस्य लज्जा ताम् त्वाम् नताः स्म परिपालय देवि विश्वम्। किम् वर्णयाम् तव रूपमचिन्त्यमेतत् किम् चातिवीर्यम् सुरक्षयकारि भूरि किम् चाहवे सुचरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु। हेतुः समस्तजगताम् त्रिगुणापि दोषैर्न ध्यायसे हरिहरादिभिरप्यपारा। सर्वाश्रयाखिलमिदम् जगदंशभूतम् अव्याकृता हि परमा प्रकृतिस्त्वमाद्या। यस्याः समस्तसुरता समुदीरणेन तृप्तिम् प्रयाति सकलेषु मखेषु देवी। स्वाहा शिवै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमत एव जनैः स्वधा च। या मुक्तिहेतुरविचिन्त्य महाव्रता त्वमभ्यस्तसे सुनियतेन्द्रियतत्त्वसारैः। मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्याशिषा भगवती परमा हि देवी। शब्दात्मिका सुविमलर्यजुषाम् निधानम् उद्गीथरम्यपदपाठवताम् च साम्नाम् देवित्रयी भगवती भवभावनाय। वार्ता च सर्वजगताम् परमार्थिहन्त्री मेधासि देवि विदिताखिलशास्त्रसारा। दुर्गासि दुर्गभवसागरनौरसङ्गा। श्रीकैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा। ईषत्सहासममलम् परिपूर्णचन्द्र बिम्बानुकारि कनकोत्तमकान्तिकान्तम्। अत्यद्भुतम् प्रहृतिमात्तरुषाम् तथापि वक्त्रम् विलोक्य सहसा महिषासुरेण। दृष्ट्वा तु देवि कुपितम् भ्रिकुटीकरालम् उद्यच्छशाङ्कसदृशच्छवियन्न सद्यः। प्राणान्मुमोच महिषस्तदतीव चित्रम् कैर्जीव्यते हि कुपितान्तकदर्शनेन। देवी प्रसीद परमा भवति भवाय सद्यो विनाशयसि कोपवति कुलानि। विज्ञातमेतदधुनैव यदस्तमेतन् नीतम् बलम् सुविपुलम् महिषासुरस्य। ते सम्मता जनपदेषु धनानि तेषाम् तेषाम् यशांसि न च सीदति धर्मवर्गः। धन्यास्त एव निभृतात्मजभृत्यदारा येषाम् सदाभ्युदयदा भवति प्रसन्ना। धर्म्याणि देवि सकलानि सदैव कर्माण् यत्याद्रितः प्रतिदिनम् सुकृती करोति। स्वर्गम् प्रयाति च ततो भवति प्रसादाल् लोकत्रयेऽपि फलदा ननु देवितेन। दुर्गे स्मृता हरसि भीतिमशेष जन्तोः स्वस्थैः स्मृता मतिमतीव शुभाम् ददासि। दारिद्र्यदुःखभयहारिणी का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् संग्राम मृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितानि विनिहंसि देवि दृष्ट्वैव किं न भवति प्रकरोति भस्म सर्वासुरान् ऋषु यत्र हिणोषि शस्त्रम् लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेति साध्वी खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् यन्नागताभिलयमंशुमदिन्दुखण्ड योग्याननम् तव विलोकयताम् तदेतत् दुर्वृत्तवृत्तशमनम् तव देवि शीलम् रूपम् तथैतदविचिन्त्यमतुल्यमन्यैः वीर्यम् च हन्त्रि हृतदेवपराक्रमाणाम् वैरिष्वपि प्रकटितैव दया त्वयेत्थम् केनोपमा भवतु तेऽस्य पराक्रमस्य रूपम् च शत्रुभयकार्यतिहारि पुत्र चित्ते कृपासमरनिष्ठुरता च दृष्टा त्वयैव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यमेतदखिलम् रिपुनाशनेन त्रातम् त्वया समरमूर्धनितेऽपि हत्वा नीतादिवम् रिपुगणाभयमप्यपास्तम् अस्माकमुन्मदसुरारिभवम् नमस्ते शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके घण्टास्वनेन नः पाहि चापज्ञानिः स्वनेन च प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् तथेश्वरी सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्मांस्तथा भुवम् खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ऋषिरुवाच एवम् स्तुतासुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः अर्चिता जगताम् धात्री तथा गन्धानुलेपनैः भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता प्राह प्रसाद सुमुखी समस्तान् प्रणतान् सुरान् देव्योवाच व्रियताम् त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् देवाऊचुः भगवत्या कृतम् सर्वम् न किञ्चिदवशिष्यते यदयम् निहतः शत्रुरस्माकम् महिषासुरः यदि चापि वरो देयस्त्वयास्माकम् महेश्वरि संस्मृता संस्मृता त्वम् नो हिंसेथाः परमापदः यस्य मर्त्यः स वैरेभिस्त्वाम् स्तोष्यत्यमलानने तस्य वित्तर्थिविभवैर्धन दारादिसम्पदाम् वृद्धये स्मत्प्रसन्ना त्वम् भवेथाः सर्वदाम्बिके ऋषिरुवाच इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप इत्येत्कथितम् भूप सम्भूता सा यथा पुरा देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी पुनश्च गौरी देहात्सा समुद्भूता यथा भवत् वधाय दुष्टदैत्यानाम् तथा शुम्भनिशुम्भयोः रक्षणाय च लोकानां देवानां उपकारिणि तच्छृणुष्व मया ख्यातं यथावत् कथयामि ते। ह्रीं ॐ। इति श्री मार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये शक्रादिस्तुतिर्नाम चतुर्थो अध्यायः। अथ श्री दुर्गा सप्तशती पंचमो अध्यायः। विनियोगः। ओम अस्य श्री उत्तर चरित्रस्य रुद्र ऋषिः महासरस्वती देवता अनुष्टुप छन्दः भीमा शक्तिः भ्रामरी बीजम् सूर्यस्तत्त्वम् सामवेदः स्वरूपम् महासरस्वती प्रीत्यर्थे उत्तर चरित्र पाठे विनियोगः। ध्यानम्। ओम घंटा शूल हलानि शंख मुसले चक्रम धनुः सायकम् हस्ताब्जैर्दधतीं घनांत विलसत् चीतांशुतुल्य प्रभाम् गौरी देह समुद्भवाम् त्रिजगताम् आधारभूताम् महा पूर्वामत्र सरस्वती मनुभजे शुम्भादि दैत्यार्दिनी। ओम क्लीम ऋषिरुवाच। पुरा शुम्भन शुम्भाभ्याम् असुराभ्याम् शचीपते त्रैलोक्यम् यज्ञभागाश्च हृतामदबलाश्रयात् तावेव सूर्यताम् तद्वद् धिकारम् तथैन्दवम् कौबेरमथ याम्यम् च चक्राते वरुणस्य च तावेव पवनर्धिम् च चक्रतुर्वहनिकर्म च ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः हृताधिकारास्त्रिदशास्ताभ्याम् सर्वे निराकृताः महासुराभ्याम् ताम् देवीम् संस्मरन्त्यपराजिताम् थयास्माकम् वरो दत्तो यथा पत्सु स्मृताखिला भवताम् नाशयिष्यामि तत्क्षणात् परमापदः। इति कृत्वा मतिम् देवा हिमवन्तम् नगीश्वरम् जगमुस्तत्र ततो देवीम् विष्णुमाया प्रतुष्टुवुः। देवा उचुः नमो देव्यै महादेव्यै शिवायै सततम् नमः नमः प्रकृत्यै भद्रायै नियताः प्रणतास्मताम् रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततम् नमः कल्याण्यै प्रणताम् वृद्ध्यै सिद्ध्यै कूर्मो नमो नमः नैऋत्यै भूभृताम् लक्ष्म्यै सर्वाण्यै ते नमो नमः दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततम् नमः अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः या देवी सर्वभूतेषु चेतनेत्यभिधीयते नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु निद्रारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु छायारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु जातिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लज्जारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु दयारूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु मातृरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता, नमस्तस्यै 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 नमो नमः। इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या, भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः। चितिरूपेण या कृत्स्न मेतद्व्याप्यस्थिता जगत्, नमस्तस्यै 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 नमो नमः। स्तुतासुरैः पूर्वमभीष्ट संश्रयात्, तथा सुरेन्द्रेण दिनेषु सेविता, करोतु सा नः शुभहेतुरीश्वरी, शुभानि भद्राण्यभिहन्तु चापदः। या साम्प्रतं चोद्धत दैत्यतापितैर्स्माभिरीशाच्च सुरैर्नमस्यते, या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्रमूर्तिभिः। ऋषिरुवाच, एवं स्तवादियुक्तानां देवानां तत्र पार्वती स्नातुमभ्याययौ तोये जाह्नव्या निपनन्दन। साब्रवीत्तान् सुरान् शुभ्रूर्भवद्भिः स्तूयते त्रका, शरीरकोशतश्चास्या समुद्भूता ब्रवीच्छिवा। स्तोत्रम् ममैतत्क्रियते शुम्भदैत्यनिराकृतैः देवैः समेतैः समरे निशुम्भेन पराजितैः। शरीरकोशाद्यत्तस्याः पार्वत्या निःसृताम्बिका कौशिकीति समस्तेषु ततो लोकेषु गीयते। तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती कालिकेति समाख्याता हिमाचलकृताश्रया। ततोऽम्बिकां परं रूपं विभ्राणां सुमनोहरं ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः। ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा काप्यास्ते स्त्री महाराज भासयन्ति हिमाचलम्। नैव तादृक क्वचिद्रूपम् दृष्टम् केनचिदुत्तमम्। ज्ञायताम् काप्यसौ देवी गृह्यताम् चासुरेश्वरा। स्त्रीरत्नमति चार्वङ्गी ज्योयन्ति दिशत्विषा सा तु तिष्ठति दैत्येन्द्र ताम् भवान् द्रष्टुमर्हति। यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो त्रैलोक्ये तु समस्तानि साम्प्रतम् भान्ति ते गृहे। ऐरावतः समानीतो गजरत्नम् पुरन्दरात् पारिजाततरुश्चायम् तथैवोच्चैश्रवाहयः। विमानम् हंस संयोक्त मे तत्तिष्ठति तेऽङ्गणे रत्नभूतमिहानीतम् यदासीद्वेधसोद्भुतम्। निधिरेश महापद्मः समानीतो धनेश्वरात् किञ्जल्किनीम् ददौ चाभिर्मालामम्लान् पङ्कजाम्। छत्रम् ते वारुणम् गेहे काञ्चनस्त्रावितिष्ठति तथायम् सन्द्यनवरो यः पुरासि प्रजापते। मृत्युरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे। निशुम्भस्याभिजाताश्च समस्ता रत्नजातयः वह्निरपि ददौ तुभ्यम् अग्निशौचे च वाससि। एवम् दैत्येन्द्ररत्नानि समस्तान्याहृतानि ते स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते। ऋषिरुवाच, निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः प्रेषयामासु सुग्रीवम् दूतम् देव्या महासुरम्। इति चेति च वक्तव्या सा गत्वा वचनान् मम यथा चाभ्येति सम्प्रीत्या तथा कार्यम् त्वया लघु। स तत्र गत्वा यत्रास्ते शैलोद्देशेति शोभने सा देवी ताम् ततः प्राह श्लक्षणम् मधुरया गिरा। दूत उवाच, देवि दैत्येश्वरः शुम्भः त्रैलोक्ये परमेश्वरः दूतोऽहम् प्रेषितस्तेन त्वत्सकाशमिहागतः। अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु निर्जिताखिल दैत्यारिः स यदाह शृणुष्व तत् मम त्रैलोक्यम् अखिलम् मम देवावशानुगाः यज्ञभागानहम् सर्वान् उपाश्नामि पृथक् पृथक् त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः तथैव गजरत्नम् च हृत्वा देवेन्द्रवाहनम् क्षीरोदमथनोद्भूतम् अश्वरत्नम् ममामरैः उच्चैः स्रवससंज्ञम् त्रत् प्रणिपत्य समर्पितम् यानि चान्यानि देवेषु गन्धर्वेषु रगेषु च रत्नभूतानि भूतानि तानि मय्येव शोभने स्त्रीरत्नभूतान् त्वाम् देवि लोके मन्यामहे वयम् सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् माम् वा ममानुजम् वापि निशुम्भमुरुविक्रमम् भज त्वम् चञ्चलापाङ्गिम् रत्नभूतासि वैयतः परमैश्वर्यमतुलम् प्राप्यसे मत्परिग्रहात् एतद्बुद्ध्या समालोच्य मत्परिग्रहताम् व्रज ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तः स्मिता जगौ दुर्गा भगवती भद्रा ययेदम् धार्यते जगत् देव्योवाच सत्यमुक्तम् त्वया नात्र मिथ्या किञ्चित् त्वयोदितम् त्रैलोक्याधिपतिः शुम्भो निशुम्भश्चापि तादृशः किम् त्वत्र यत्प्रतिज्ञातम् मिथ्या तत्क्रियते कथम् श्रूयताम् अल्पबुद्धित्वात् प्रतिज्ञाया कृता पुरा यो माम् जयति सङ्ग्रामे यो मे दर्पम् व्यपोहति यो मे प्रतिबलो लोके स मे भर्ता भविष्यति तदा गच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः माम् जित्वा किम् चिरेणात्र पाणिम् गृह्णातु मे लघु दूत उवाच अविलिप्तासि मैवम् त्वम् देवि ब्रूहि ममाग्रतः त्रैलोक्ये कः पुमांस्तिष्ठेत् अग्रे शुम्भनिशुम्भयोः अन्येषामपि दैत्यानाम् सर्वे देवान् वैयुधि तिष्ठन्ति सम्मुखे देवि किम् पुनः स्त्री त्वमेकिका इन्द्राद्याः सकला देवास्तस्थुर्येषाम् न संयुगे शुम्भादीनाम् कथम् तेषाम् स्त्रीप्रयास्यसि सम्मुखम् सा त्वम् गच्छ मयैवोक्ता पार्श्वम् शुम्भनिशुम्भयोः केशाकर्षणनिर्धूत गौरवामागमिष्यसि देव्य उवाच एवमेतद्बली शुम्भो निशुम्भश्चातिवीर्यवान् किम् करोमि प्रतिज्ञा मे यदनालोचिता पुरा स त्वम् गच्छ मयोक्तम् ते यदेतत्सर्वमादृतः तदा चक्ष्वासुरेन्द्राय स च योक्तम् करोतु तत् ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये देव्यादूतसंवादो नाम पञ्चमो अध्यायः। अथ श्री दुर्गा सप्तशती षष्ठो अध्यायः ध्यानम्। ॐ नागाधीश्वर विष्टराम् फणिफणोत्तम् सोरुरत्नावली भास्वद्देहलताम् दिवाकर निभाम् नेत्रत्रयोद्भासिताम् माला कुंभ कपाल नीरज कराम चंद्रार्ध चूडाम पराम सर्वज्ञेश्वर भैरवांक निलयाम पद्मावतीं चिंतये। ओम ऋषिरुवाच इत्याकर्ण्यवचो देव्याः सदूतो मर्षपूरितः समाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यम् अकर्ण्यासुरराट्टतः सक्रोधः प्राह दैत्यानाम् अधिपम् धूम्रलोचनम् हे धूम्रलोचनाशु त्वम् स्वसैन्य परिवारितः तामानय बलाद्दुष्टाम् केशाकर्षण विह्वलाम् तत्परित्राणदः कश्चित् आदिवेत्तेष्ठिते परः सहन्तव्यो मरुवापि यक्षो गन्धर्व एव वा। ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रम् स दैत्यो धूम्रलोचनः वृतः षष्ट्या सहस्राणाम् असुराणाम् द्रुतम् ययौ स दृष्ट्वा ताम् ततो देवीम् तुहिनाचल संस्थिताम् जगादोच्चैः प्रयाहीति मूलम् शुम्भनिशुम्भयोः न चेत्प्रीत्याद्य भवति मद्भार्तारमुपैष्यति ततो बलान्नयाम्येष केशाकर्षण विह्वलाम्। देव्योवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेवम् ततः किम् ते करोम्यहम्। ऋषिरुवाच इत्युक्तः सोऽव्यधावत्तामसुरो धूम्रलोचनः हुङ्कारेणैव तम् भस्म सा चकाराम्बिका ततः अथ क्रुद्धम् महासैन्यम् असुराणाम् तथाम्बिका ववर्ष सायकैस्तीक्ष्णैः तथा शक्तिपरश्वधैः ततो धुतसटः गोपात् कृत्वा नादम् सुभैरवम् पपातासुरसेनायाम् सिंहो देव्याः स्ववाहनः कांश्चित्करप्रहारेण दैत्यानात्येन चापरान् आक्रम्य चाधरेणान्यान् सजघान् महासुरान् केषाञ्चित् पाटयामास नखैः कोष्ठानि केसरी तथा तलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्न बाहुशिरसः कृतास्तेन तथा परे पपौ च रुधिरम् कोष्ठात् अन्येषाम् धृतकेसरः क्षणेन तद्बलम् सर्वम् क्षयम् नीतम् महात्मना तेन केसरिणा देव्या वाहनेनातिकोपिना श्रुत्वा तमसुरम् देव्या निहतम् धूम्रलोचनम् बलम् च छैतम् कृत्स्नम् देवी केसरिणा ततः चुकोपदैत्याधिपतिः शुम्भः प्रस्फुरिताधरः आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च सा समानीयताम् लघु केशे स्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि तदा शेषायुधैः सर्वैः असुरैर्विनिहन्यताम् तस्याम् हतायाम् दुष्टायाम् सिंहे च विनिपातिते शीघ्रमागम्यताम् बद्ध्वा गृहीत्वा तामथाम्बिकाम्। ॐ इति श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये शुम्भ निशुम्भ सेनानी धूम्रलोचन वधो नाम षष्ठो अध्यायः। अथ श्री दुर्गा सप्तशती सप्तमो अध्यायः ध्यानम्। ॐ ध्यायेयं रत्नपीठे शुककलपठितम् शृण्वतीं श्यामलाङ्गीं न्यस्तैकाङ्घ्रिं सरोजे शशिशकलधरां वल्लकीं वादयन्तीं कलहाराबद्धमालां नियमितविलसच्चोलिकां रक्तवस्त्रां मातङ्गी शङ्खपात्रां मधुरमधुमदां चित्रकोद्भासि भालां। ॐ ऋषिरुवाच आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ददृशुस्ते ततो देवीम् ईषद्धासाम् व्यवस्थिताम् सिंहस्योपरि शैलेन्द्र शृङ्गे महति काञ्चने ते दृष्ट्वा ताम् समादातुम् उद्यमम् चक्रुरुद्यताः आकृष्ट चापासि धरास्तथान्ये तत्समीपगाः ततः कोपम् चकारोच्चै रम्बिका तानरीनि प्रति कोपेन चास्यावदनम् मषीवर्णमभूत्तदा भ्रिकुटीकुटिलात्तस्या ललाटफलकादृतम् काली करालवदना विनिष्क्रान्तासि पाशिनी विचित्रखट्वाङ्गधरा नरमाला विभूषणा द्वीपिचर्म परिधाना शुष्कमांसातिभैरवा अतिविस्तारवदना जिह्वालनभीषणा निमग्ना रक्तनयना नादापूरितदिङ्मुखा सा वेगेनाभिपतिता घातयन्ती महासुरान् सैन्ये तत्र सुरारीणाम् भक्षयत् तद्बलम् पार्ष्णग्राहाङ्कुशग्राही योधघण्टा समन्वितान् समादायैकहस्तेन मुखे चिक्षेपवारणान् तथैव योधम् तुर्गै रथम् सारथिना सह निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् एकम् जग्राहकेशेषु ग्रीवायामथ चापरम् पादेनाक्रम्य चैवान्यम् उरसान्यमपोथयत् तैर्मुक्तानि च शस्त्राणि महास्त्राणि तथा सुरैः मुखेन जग्राहरूषा दशनैर्मथितान्यपि बलिनाम् तद्बलम् सर्वम् असुराणाम् दुरात्मनाम् ममर्दा भक्षयच्चान्या नन्याश्चाताडयत्तथा असिना निहताः केचित् केचित् खट्वाङ्गताडिताः जगमुर्विनाशमसुरा दन्ताग्राभिहतास्तथा क्षणेन तद्बलम् सर्वम् असुराणाम् निपातितम् दृष्ट्वा चण्डोऽभिदुद्राव ताम् कालीमतिभीषणाम् शरवर्षैर्महाभीमैर्भीमाक्षीम् ताम् महासुरः छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः तानि चक्राण्यनेकानि विषमानानि तन्मुखम् बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ततो जहासातिरूषा भीमम् भैरवनादिनि कालीकरालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला उत्थाय च महासिंहम् देवी चण्डमधावत् गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् अथ मुण्डोऽभ्यधावत्ताम् दृष्ट्वा चण्डम् निपातितम् तमप्यपातयद्भूमौ साखड्गाभिहतमृषा हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितं मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरं शिरश्चण्डस्य काली च गृहीत्वा मुण्डमेव च प्राह प्रचण्डाट्टहासमिश्र मभ्येत्य चण्डिकां मया तवात्रोपहृतौ चण्डमुण्डौ महापशु युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चण्डमुण्डौ महासुरौ उवाच कालीं कल्याणी ललितं चण्डिकावचः यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता चामुण्डेति ततो लोके ख्याता देवि भविष्यति ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये चण्डमुण्डवधो नाम सप्तमोऽध्यायः। अथ श्री दुर्गा सप्तशती अष्टमो अध्यायः। ध्यानम् ओम अरुणां करुणा तरंगिताक्षीं धृतपाशांकुशबाणचापहस्तां अणिमादिभिरावृतां मयूखैर् हमित्येव विभावये भवानी। ओम ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते बहुलेषु च सैन्येषु क्षैतेष्व सुरेश्वरः ततः कूपपराधीन चेताः शुम्भः प्रतापवान् उद्योगं सर्वसैन्यानां दैत्यानामादिदेशः अद्य सर्वबलैर्दैत्याः षडशीति रुदायुधाः कम्बूनां चतुर्शीतिर्निर्यान्तु स्वबलैर्वृताः कोटिवीर्याणि पञ्चाशत् असुराणां कुलानि वै शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया। कालकादौ हृदा मौर्याः कालकेयास्तथा सुराः युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम। इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः निर्जगाम महासैन्य सहस्रैर्बहुभिर्वृतः। आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभीषणम् ज्यास्वनैः पूरयामास धरणी गगनान्तरम्। ततः सिंहो महानादम् अतीव कृतवान् नृप घण्टास्वनेन तन्नादम् अम्बिका चोपबृंहयत। धनुर्जा सिंहघण्टानाम् नादापूरितदिङ्मुखा निनादैर्भीषणैः काली जिज्ञे विस्तारितानना। तम् निनादमुपश्रुत्य दैत्यसैन्यश्चतुर्दिशम् देवी सिंहस्तथा काली सरोषैः परिवारिताः। एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् भवायामरसिंहानाम् अतिवीर्य बलान्विताः। ब्रह्मेश गुहविष्णूनाम् तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः। यस्य देवस्य यद्रूपम् यथा भूषणवाहनम् तद्वदेव हि तच्छक्तिः असुरान् योद्धुमाययौ। हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः आयाता ब्रह्मणः शक्तिर् ब्रह्माणी साभिधीयते माहेश्वरी वृषारूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चंद्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना योद्धुमभ्याययौ दैत्यान् अंबिका गुहरूपिणी तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता शंखचक्रगदाशारंग खड्गहस्ताभ्युपाययौ यज्ञवाराहमतुलम् रूपं या विभ्रतो हरेः शक्तिः साप्याययौ तत्र वाराहीं विभ्रति तनुम् नारसिंहे नृसिंहस्य विभ्रति सदृशं वपुः प्राप्ता तत्र सटाक्षेप क्षिप्तन क्षत्र संहतिः वज्रहस्ता तथैवैन्द्री गजराजोपरिस्थिता प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ततः परिवृतस्ताभिर् ईशानो देवशक्तिभिः हन्यन्ताम् सुराः शीघ्रम् मम प्रीत्याह चण्डिकाम् ततो देवी शरीरात्तु विनिष्क्रान्तातिभीषणा चण्डिका शक्तिरत्युग्रा शिवा शतनिनादिनी सा चाह धूम्रजटिलम् ईशानम् अपराजिता दूतं त्वं गच्छ भगवन् पार्श्वं शुम्भ निशुम्भयोः ब्रूहि शुम्भं निशुम्भं च दानवावति गर्वितौ ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः त्रैलोक्यमिन्द्रो लभताम् देवाः सन्तु हविर्भुजः यूयम् प्रयात पातालम् यदि जीवितुम् इच्छथ बलावले पादथ चेद् भवन्तो युद्धकाङ्क्षिणः तदा गच्छत्रिप्यन्तु मच्छिवाः पिशितेन वः यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् शिवदूतेति लोकेऽस्मि ततः साख्यातिमागता तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातम् महासुराः अमर्षा पूरिता जगमुर्यत्र कात्यायनी स्थिता ततः प्रथमेवाग्रे शरशक्तृष्टिवृष्टिभिः ववर्षुरुद्धतामर्षा ताम् देवीममरारयः सा च तान् प्रहितान् बाणान् छूलशक्तिपरश्वधान् चिच्छेदलीलयाध्मात् धनुर्मुक्तैर्महेषुभिः तस्याग्रतस्तथा काली शूलपातविदारितान् खट्वाङ्गपोथितांश्चारीन् कुर्वती व्यचरत्तदा कमण्डलुजलाक्षेप हतवीर्यान् हतौजसः ब्रह्माणि चाकरोच्छत्रून् येन येन स्म धावति माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्यान्जघान् कौमारी तथा शक्त्यातिकोपना ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः पेतुर्विदारिताः पृथिव्याम् रुधिरौघप्रवर्षिणः तुण्डप्रहारविध्वस्ता दंष्टाग्रक्षतवक्षसः वाराहमूर्त्यनपतंश्चक्रेण च विदारिताः नखैर्विदारितांश्चान्यान् भक्षयन्ति महासुरान् नारसिंही चचाराजौ नादापूर्णदिगम्बरा चण्डाट्टहासरैरसुराः शिवदूत्यभिदूषिताः पेतुः पृथिव्याम् पतितांस्तांश्चखादाथ सा तदा इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् दृष्ट्वाभ्युपायैर्विविधैर्नेषुर्देवारिसैनिकाः पलायन परान् दृष्ट्वा दैत्यान् मातृगणार्दितान् योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः समुत्पतति मेदिन्याम् तत्प्रमाणस्तदासुरः युयुधे स गदा पाणिरिन्द्रशक्त्या महासुरः ततश्चैन्द्रीस्ववज्रेण रक्तबीजमताडयत् कुलिशेनाहतस्याशु बहुशुस्रावशोणितम् समुत्तस्थुस्ततो योद्धास्तद्रूपास्तत्पराक्रमाः यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ते चापि युयुधुस्तत्र पुरुषारक्तसम्भवाः समम् मातृभिरत्युग्र शस्त्रपातातिभीषणम् पुनश्च वज्रपातेन क्षतमस्य शिरो यदा ववाह रक्तम् पुरुषास्ततो जाताः सहस्रशः वैष्णवी समरे चैनम् चक्रेणाभिजघान्ह गदया ताडयामास ऐन्द्री तम सुरेश्वरम् वैष्णवी चक्रभिन्नस्य रुधिरस्रावसम्भवैः सहस्रशो जगद्व्याप्तम् तत्प्रमाणैर्महासुरैः शक्त्या जघान् कौमारी वाराही च तथासिना माहेश्वरी त्रिशूलेन रक्तबीजम् महासुरान् स चापि गदया दैत्यः सर्वा एवाहनत् पृथक् मातृः कूपसमाविष्टो रक्तबीजो महासुरः तस्याहतस्य बहुधा शक्तिशूलाधिभिर्भुवि पपातयो वै रक्तौघः तेनासञ्छतशोऽसुराः तैश्चासुरासृक्सम्भूतैर्सुरैः सकलम् जगत् व्याप्तमासीत्ततो देवा भयमाजगमुरुत्तमम् तान् विष्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा उवाच कालीम् चामुण्डे विस्तीर्णम् वदनम् कुरु मच्छस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् रक्तबिन्दोः प्रतीच्छत्वम् वक्त्रेणानेन वेगिना भक्षयन्ति चररणे तदुत्पन्नान् महासुरान् एवमेष क्षयम् दैत्यः क्षीणरक्तो गमिष्यति भक्ष्यमाणान् स्वया चोग्रा न चोत्पत्स्यन्ति चापरे इत्युक्त्वा ताम् ततो देवी शूलेनाभिजघान्तमा मुखेन काली जगृहे रक्तबीजस्य शोणितम् ततो सा वा जघानाथ गदया तत्र चण्डिकाम् न चास्यावेदनाम् चक्रे गदापातोल्पिकामपि तस्याः तस्य देहात्तु बहुशुस्रावशोणितम् यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति मुखे समुद्गता ये स्या रक्तपातान् महासुराः तांशखादाथ चामुण्डा पपौ तस्य च शोणितम् देवी शूलेन वज्रेण बाणैरसिभिरिष्टिभिः जघान् रक्तबीजम् तम् चामुण्डापीतशोणितम् स पपातमहीपृष्ठे शस्त्रसङ्घसमाहतः नीरक्तश्च महीपाल रक्तबीजो महासुरः ततस्ते हर्षम् अतुलम् अवापुस्त्रिदशा नृप तेषाम् मातृगणो जातो ननर्ता शृङ्गमधोद्धतः। ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये रक्तबीजवधो नाम अष्टमोऽध्यायः। अथ श्रीदुर्गा सप्तशती नवमोऽध्यायः। ध्यानम्। ॐ बन्धूककाञ्चननिभम् रुचिराक्षमालाम् पाशाङ्कुशौचवरदाम् निजबाहुदण्डैः विभ्राणमिन्दुशकलाभरणम् त्रिनेत्रम् अर्धाम्बिकेशमनिशम् वपुराश्रयामि। ॐ राजोवाच। विचित्रमिदमाख्यातम् भगवन् भवता मम देव्याश्चरितमाहात्म्यम् रक्तबीजवधाश्रितम् भूयश्चेक्षाम्यहम् श्रोतुम् रक्तबीजे निपातिते चकारशुम्भो यत्कर्म निशुम्भश्चातिकूपनः। ऋषिरुवाच। चकारकूपम् अतुलम् रक्तबीजे निपातिते शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे हन्यमानम् महासैन्यम् विलोक्यामर्षमुद्वहन् अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः सन्दश्चौष्ठपुटाः क्रुद्धा हन्तुम् देवीमुपाययुः। आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृथः निहन्तुम् चण्डिकाम् कोपात् कृत्वा युद्धम् तु मातृभिः। ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः शरवर्षमतीवोग्रम् मेघयोरिव वर्षतोः चिच्छेदास्ताञ्छरास्ताभ्याम् चण्डिका स्वशरोत्करैः ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ निशुम्भो निशितम् खड्गम् चर्म चादाय सुप्रभम् अताडयन्मोर्घ्निसिंहम् देव्या वाहनमुत्तमम् ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् निशुम्भस्याशु चिच्छेद चर्म चाप्यश्च चन्द्रकम् छिन्ने चर्माणि खड्गे च शक्तिम् चिक्षेप सोऽसुरः तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् कूपाध्मातो निशुम्भोऽथ शूलम् जग्राह दानवः आयातम् मुष्टिपातेन देवी तच्चाप्यचूर्णयत् अविध्याथ कदाम् सोऽपि चिक्षेप चण्डिकाम् प्रति सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ततः परशुहस्तम् तमायान्तम् दैत्यपुङ्गवम् आहत्य देवी बाणौघैरपातयत् भूतले तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे भ्रातर्यतीव सङ्क्रुद्धः प्ययौ हन्तुमम्बिकाम् सरथस्थस्थथात्युच्चैर्गृहीत परमायुधैः भुजैरष्टाभिरतुलैर्व्याप्याशेषम् बभौ नभः तमायान्तम् समालोक्य देवी शङ्खमवादयत् ज्याशब्दम् चापि धनुषश्च कारातीव दुःसहम् पूरयामास ककुभो निजघण्टास्वनेन च समस्तदैत्यसैन्यानाम् तेजो वधविधायिना ततः सिंहो महानादैस्त्याजितेभ महामदैः पूरयामास गगनम् गाम् तथैव दिशो दश ततः काली समुत्पत्य गगनम् क्ष्माम ताडयत् कराभ्याम् तन्निनादेन प्राक्स्वनास्ते तिरोहिताः अट्टाटहासमशिवम् शिवदूती चकारः तैः शब्दैरसुरास्त्रेषु शुम्भः कूपम् परम् ययौ दुरात्मं तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा तदा जयत्यभेतं देवैराकाश संस्थितैः शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा आयान्ति वहिनिकूटा भासा निरस्ता महूल्कया सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् निर्घातनिः स्वनो घोरो जितवान वनीपते शुम्भमुक्ताञ्छरान् देवी शुम्भस्तत्र हितांचरान् चिच्छेद स्वशरैरुग्रैः शतशोथ सहस्रशः ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान्तमा स तदाभिहतो भूमौ मूर्छितो दीपपातः ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः आजघान्शरैर्देवीम् कालीम् केशरिणम् तथा पुनश्च कृत्वा बाहूनाम् अयुतम् दनुजेश्वरः चक्रायुधेन दितिजश्चाधयामास चण्डिकाम् ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी चिच्छेदतानि चक्राणि स्वशरैः सायकांक्षतान् ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् अभ्यधावत वैहन्तुम् दैत्यसेना समावृतः तस्यापतत एवाशु गदाम् चिच्छेद चण्डिका खड्गेन शितधारेण स च शूलम् समाददे शूलहस्तम् समायान्तम् निशुम्भ ममरार्दनम् हृदि विव्याधशूलेन वेगाविद्धेन चण्डिका भिन्नस्य तस्य शूलेन हृदयान्निहसितोपरः महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् तस्य निष्क्रामतो देवी प्रहत्य स्वनवत्ततः शिरश्चिच्छेदखड्गेन ततो सावपतद्भुवि ततः सिंहश्च खादोग्रम् दंष्टा क्षुण्णशिरोधरान् असुरांस्तांस्तथा काली शिवदूती तथा परान् कौमारी शक्ति निर्भिन्ना केचिन्नेषुर्महासुरा ब्रह्माणि मन्त्रपूतेन तो ये नान्ये निराकृताः माहेश्वरी त्रिशूलेन भिन्नाः पेतुस्तथा परे वाराही तुण्डघातेन केचिच्चूर्णीकृता भुवि खण्डम् खण्डम् च चक्रेण वैष्णव्यादानवा कृता वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथा परि केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् भक्षिताश्चापरे काली शिवदूती मृगाधिपैः ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये निशुम्भवधो नाम नवमोऽध्यायः। अथ श्री दुर्गा सप्तशती दशमो अध्यायः ध्यानम्। ओम उत्तप्त हेम रुचिराम रविचंद्र वहनिम् नेत्राम धनुश्शरयुतांकुश पाशशूलम् रम्यैर्भुजैष्यदधतिम् शिवशक्तिरूपाम् कामेश्वरीम् हृदि भजामि धृतेन्दुलेखाम्। ॐ ऋषिरुवाच निशुम्भम् निहतम् दृष्ट्वा भ्रातरम् प्राणसम्मितम् हन्यमानम् बलम् चैव शुम्भः क्रुद्धो ब्रवीद्वचः बलावलित्पाद्दुष्टे त्वम् मा दुर्गे गर्वमावह अन्यासाम् बलमाश्रित्य युद्धसे याति मानिनि। देव्युवाच एकैवाहम् जगत्यत्र द्वितीया का ममापरा पश्यैता दुष्टमय्येव विशन्त्यो मद्विभूतयः। ततः समस्तास्ता देव्यो ब्रह्माणि प्रमुखालयम् तस्या देव्यास्तनौ जगमुर्एकैवासीत्तदाम्बिका। देव्युवाच अहम् विभूत्या बहुभिर्ह रूपैर्यदास्थिता तत्संहृतम् मयैकैव तिष्ठाम्याजौ स्थिरो भव। ततः प्रववृते युद्धम् देव्याः शुम्भस्य चोभयो पश्यतां सर्वदेवानां असुराणां च दारुणं शरवर्षैः शितैः शस्त्रैस्तथास्त्रैश्चैव दारुणैः तयोर्युद्धमद्भूयः सर्वलोकभयङ्करम् दिव्यान्यस्त्राणि शतशो मुमुचेयान्यथाम्बिका बभञ्जतानि दैत्येन्द्रस्तत्प्रतिघातकर्तृभिः मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी बभञ्जलीलयैवोग्र हुङ्कारोच्चारणाधिभिः ततः शरशतैर्देवीम् आच्छादयत् सोऽसुरः सापि तत्कुपिता देवी धनुश्चच्छेदचेषुभिः छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथादधि चिच्छेददेवी चक्रेण तामप्यस्य करे स्थिताम् ततः खड्गमुपादाय शतचन्द्रम् च भानुमत् अभ्यधावत्तदा देवीम् दैत्यानामधिपेश्वरः तस्यापतत् एवाशु खड्गम् चिच्छेदचण्डिका धनुर्मुक्तैः शितैर्बाणैश्चर्मचार्ककरामलम् हताश्वः स तदा दैत्यश् छिन्नधन्वाविसारथिः जग्राहमुद्गरम् घोरम् अम्बिका निधनोद्यतः चिच्छेदापततस्तस्य मुद्गरम् निशितैः शरैः तथापि सोऽभ्यधावत्ताम् मुष्टिमुद्यम्य वेगवान् स मुष्टिम् पातयामास हृदये दैत्यपुङ्गवः देव्यास्तम् चापि सा देवी तलेनोरस्य ताडयत् तलप्रहाराभिहतो निपपातमहीतले स दैत्यराजः सहसा पुनरेव तथोत्थितः उत्पत्य च प्रगृह्योच्चैर्देवीम् गगनमास्थितः तत्रापि सा निराधारा युयुधे तेन चण्डिका नियुद्धम् खेतदा दैत्यश् चण्डिका च परस्परम् चक्रतुः प्रथमम् सिद्ध मुनिविस्मयकारकम् ततो नियुद्धम् सुचिरम् कृत्वा तेनाम्बिका सह उत्पात्य भ्रामयामास चिच्छेपधरणीतले स क्षिप्तो धरणीम् प्राप्य मुष्टिमुद्यम्य वेगितः अभ्यधावत दुष्टात्मा चण्डिका निधनेच्छया तमायान्तम् ततो देवी सर्वदैत्यजनेश्वरम् जगत्याम् पातयामास भित्त्वा शूलेन वक्षसि स गतासुः पपातोर्व्याम् देवी शूलाग्रविक्षतः चालयन् सकलाम् पृथिवीम् साभ्यद्वीपाम् सपर्वताम् ततः प्रसन्नम् अखिलम् हते तस्मिन् दुरात्मनि जगत्स्वास्थ्यमतीवाप निर्मलम् चाभवन्नभः उत्पातमेघाः शुल्काये प्रागासंस्ते शमम् ययुः सरितो मार्गवाहिन्यस्तथा संस्तत्र पातिते ततो देवगणा सर्वे हर्षनिर्भरमानसाः बभूवुर्निहते तस्मिन् गन्धर्वाललितम् जगुः अवादयंस्तथैवान्ये ननृतुश्चाप्सरूगणाः वभुः पुण्यास्तथा वातः सुप्रभो भूद्दिवाकरः जज्ज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये शुम्भवधो नाम दशमोऽध्यायः। अथ श्री दुर्गा सप्तशती एकादशोऽध्यायः ध्यानम्। ॐ बालरविद्युतिमिन्दुकिरीटाम् तुङ्गकुचाम् नयनत्रययुक्ताम् स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम्। ॐ ऋषिरुवाच देव्याहते तत्र महासुरेन्द्रे सेन्द्राः सुरा वहनि पुरोगमास्ताम् कात्यायनीम् तुष्टुवरिश्च लाभात् विकाशिवक्त्राब्ज विकाशिताशाः। देवी प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य प्रसीद विश्वेश्वरि पाहि विश्वम् त्वमीश्वरी देवि चराचरस्य। आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि अपां स्वरूपस्थितया त्वयैत दाप्यायते कृत्स्नमलङ्घ्यवीर्ये। त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया। सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः। विद्या समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु। त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः सव्यपरा परोक्तिः। सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी त्वं स्तुता स्तुत एका वा भवन्तु परमोक्तयः। सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते स्वर्गापवर्गदे देवी नारायणी नमोऽस्तुते। कलाकाष्ठादिरूपेण परिणामप्रदायिनी विश्वस्योपरतौ शक्ते नारायणी नमोऽस्तुते। सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बिके गौरी नारायणि नमोऽस्तुते। सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि गुणाश्रये गुणमये नारायणि नमोऽस्तुते। शरणागत दीनार्थ परित्राण परायणे सर्वस्यार्तिहरे देवी नारायणि नमोऽस्तुते। हंसयुक्त विमानस्थे ब्रह्माणि रूपधारिणि कौशाम्भः छरिके देवी नारायणि नमोऽस्तुते। त्रिशूलचन्द्राहिधरे महावृषभवाहिनि माहेश्वरी स्वरूपेण नारायणि नमोऽस्तुते। मयूरकुक्कुटवृते महाशक्तिधरे नघे कौमारी रूपसंस्थाने नारायणि नमोऽस्तुते। शङ्खचक्रगदाशारङ्ग गृहीत परमायुधे प्रसीद वैष्णवी रूपे नारायणि नमोऽस्तुते। गृहीतोग्रमहाचक्रे दंशोद्धृत वसुन्धरे वराहरूपिणी शिवे नारायणि नमोऽस्तुते। नृसिंहरूपेणोग्रेण हन्तुम् दैत्यान् कृतोद्यमे त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तुते। किरीटिनि महावज्रे सहस्रनयनोज्ज्वले वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तुते। शिवदूतिस्वरूपेण हत दैत्य महाबले घोररूपे महारावे नारायणि नमोऽस्तुते। दंष्ट्राकरालवदने शिरोमाला विभूषणे चामुण्डे मुण्डमथने नारायणि नमोऽस्तुते। लक्ष्मीलज्जे महावेद्ये श्रद्धे पुष्टिस्वधे ध्रुवे महारात्रिमहाविद्ये नारायणि नमोऽस्तुते। मेधे सरस्वतिवरे भूतिबाभ्रवितामसि नियते त्वं प्रसीदेशे नारायणि नमोऽस्तुते। सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राहिनो देवी दुर्गे देवि नमोऽस्तुते। एतत्ते वदनं सौम्यं लोचनत्रयभूषितं पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तुते। ज्वालाकरालमत्युग्रं अशेषासुरसूदनम् त्रिशूलम् पातु नो भीतेर्भद्रकाली नमोऽस्तुते। हिनस्ति दैत्यतेजांसि स्वनेनापूर्यया जगत्, सा घण्टा पातु नो देवी पापेभ्यो नः सुतानिव। असुरा सृग्वसा पङ्क चर्चितस्ते करोज्ज्वलः, शुभाय खड्गो भवतु चण्डिके त्वाम् नता वयम्। रोगान् शेषान्नपहंसि तुष्टा, रुष्टा तु कामान् सकलान् भीष्टान्। त्वामाश्रितानाम् न विपन्नराणाम्, त्वामाश्रिता ह्याश्रयताम् प्रयान्ति। एतत्कृतम् यत्कदनम् त्वयाद्य धर्मद्विषाम् देवि महासुराणाम्। रूपैरनेकैर्बहुधात्ममूर्तिम् कृत्वाम्बिके तत्प्रकरोति कान्या। विद्यासु शास्त्रेषु विवेकदीपेषु वाद्येषु वाक्येषु च का त्वदन्या। मम त्वगर्तेति महान्धकारे विभ्रामयत्येतदतीव विश्वम्। रक्षांसि यत्रोग्रविशाश्य नागा, यत्रारयो दस्युबलानि यत्र। दावानलो यत्र तथाब्धिमध्ये, तत्र स्थिता त्वम् परिपासि विश्वम्। विश्वेश्वरि त्वम् परिपासि विश्वम्, विश्वात्मिकाधारयसीत विश्वम्। विश्वेश वन्द्या भवति भवन्ति विश्वाश्रया ये त्वयि भक्ति नम्राः। देवी प्रसीद परिपालय नोरिभीतेर्नित्यम् यथा सुरवधा दधुनैव सद्यः। पापानि सर्वजगताम् प्रशमम् नयाशु, उत्पातपाकजनितांश महोपसर्गान्। प्रणतानाम् प्रसीदत्वम् देवि विश्वार्तिहारिणि, त्रैलोक्यवासिनामीड्ये लोकानाम् वरदा भव। देव्युवाच वरदाहम् सुरगणा, वरम् यन्मनसेच्छथ तम् वृणुध्वम् प्रयच्छामि जगताम् उपकारकम्। देवा उचुः सर्वा बाधा प्रशमनम्, त्रैलोक्यस्याखिलेश्वरि एवमेव त्वया कार्यम् अस्मद्वैरिविनाशनम्। देव्युवाच वैवश्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे, शुम्भो निशुम्भश्चैवान्या उत्पत्स्येते महासुरौ। नन्दगोपगृहे जाता यशोदागर्भसम्भवा, ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी। पुनरप्यतिरौद्रेण रूपेण पृथिवीतले अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान्। भक्षयन्त्याश्यतानोग्रान् वैप्रचित्तान् महासुरान्। रक्तादन्ता भविष्यन्ति दाडिमे कुसुमोपमाः। ततो माम् देवताः स्वर्गे मर्त्यलोके च मानवाः। स्तुवन्तो व्याहरिष्यन्ति सततम् रक्तदन्तिकाम्। भूयश्च शतवार्षिक्याम् अनावृष्ट्यामनम्भसि, मुनिभिः संस्तुता भूमौ सम्भविष्याम्ययो निजा। ततः शतेन नेत्राणाम् निरीक्षिष्यामि यन्मुनीन्, कीर्तयिष्यन्ति मनुजाः शताक्षीमिति माम् ततः। ततोऽहमखिलम् लोकम् आत्मदेहसमुद्भवैः भरिष्यामि सुराः शाकैरवृष्टेः प्राणधारकैः। शाकम्भरीति विख्यातिम् तदा यास्याम्यहम् भुवि, तत्रैव च वधिष्यामि दुर्गमाख्यम् महासुरम्। दुर्गादेवीति विख्यातम् तन्मे नाम भविष्यति, पुनश्चाहम् यदा भीमम् रूपम् कृत्वा हिमाचले रक्षांसि भक्षयिष्यामि मुनीनां त्राणकारणात् तदा मां मुनयः सर्वे स्तोष्यन्त्या नम्रमूर्तयः भीमादेवीति विख्यातम् तन्मे नाम भविष्यति यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति तदाहं भ्रामरं रूपं कृत्वा संख्येय षट्पदं त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरं भ्रामरीति च मां लोकास्तदा स्तोष्यन्ति सर्वतः इत्थं यदा यदा बाधा दानवोत्था भविष्यति तदा तदावतीर्याहं करिष्याम्यरिसञ्चयम् ॐ इति श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये देव्याः स्तुतिर्नाम एकादशो अध्यायः। अथ श्री दुर्गा सप्तशती द्वादशो अध्यायः ध्यानम्। ओम विद्युद्दाम समप्रभाम् मृगपतिस्कन्धस्थिताम् भीषणाम् कन्याभिः करवालखेट विलसत् दस्ताभिरा सेविताम् हस्तैश्चक्रगदाशिखेट विशिखांश चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्राम्भजे। ॐ देव्य उवाच एभिः स्तवैष्य मां नित्यं स्तोष्यते यः समाहितः तस्याहं सकलां बाधां नाशयिष्याम्य संशयम् मधुकैटभनाशं च महिषासुरघातनम् कीर्तयिष्यन्ति ये तद्वद् वधं शुम्भनशुम्भयोः अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः श्रोषयन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् न तेषां दुष्कृतं किञ्चित् दुष्कृतोत्थात् न चापदः भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् शत्रुतो न भयं तस्य दस्युतो वा न राजतः न शस्त्रानलतो यौघात् कदाचित् सम्भविष्यति तस्मान्ममैतन्माहात्म्यम् पठितव्यम् समाहितैः श्रोतव्यम् च सदा भक्त्या परम् स्वस्थ्ययनम् हितत् उपसर्गानशेषांस्तु महामारी समुद्भवान् तथा त्रिविधमुत्पातम् माहात्म्यम् शमयेन्मम यत्रैत्पठ्यते सम्यग् नित्यमायतने मम सदा न तद्विमोक्ष्यामि सान्निध्यं तत्र मे स्थितम् बलिप्रदाने पूजायाम् अग्निकार्ये महोत्सवे सर्वं ममैत्तचरितम् उच्चार्यं शाब्दमेव च जानता जानता वापि बलिपूजां तथा कृताम् प्रतिच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् शरत्काले महापूजा क्रियते या च वार्षिकी तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः सर्वा बाधा विनिर्मुक्तो धनधान्यसुतान्वितः मनुष्यो मत्प्रसादेन भविष्यति न संशयः श्रुत्वा ममैतन्माहात्म्यं तथा चोत्पत्तयः शुभाः पराक्रमं च युद्धेषु जायते निर्भयः पुमान् रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् शान्तिकर्मणि सर्वत्र तथा दुःस्वप्नदर्शने ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः दुःस्वप्नं च निर्भिर्दृष्टं सुस्वप्नम् उपजायते बालग्रहा विभूतानां बालानां शांतिकारकं संघात भेदे च नृणां मैत्रीकरणमुत्तमं दुर्वृत्तानां शेषाणां बलहानिकरं परं रक्षो भूत पिशाचानां पठनादेव नाशनम् सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकं पशुपुष्पार्ध्यधूपैश्च गन्धदीपैस्तथोत्तमैः विप्राणां भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेणया प्रीतिर्मे क्रियते सास्मिन् सुकृतिः सुच्चरिते श्रुते श्रुतं हरति पापानि तथारोग्यं प्रयच्छति रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् तस्मिन् श्रुते वैरकृतं भयं पुंसां न जायते युष्माभिः सुतयो याश्च याश्च ब्रह्ममर्षिभिः कृता ब्रह्माणां च कृतास्तास्तु प्रयच्छन्ति शुभां मतिम् अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः दस्युभिर्वावृतः शून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा आघूर्णितो वा वातेन स्थितः पूते महार्णवे पतस्तु चापि शस्त्रेषु सङ्ग्रामे वृषदारुणे सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा स्मरन् ममैतच्चरितं नरो मुच्येत सङ्कटात् मम प्रभावात् सिंहाद्यात् दस्यवो वैरिणस्तथा दूरादेव पलायन्ते स्मरतश्चरितं मम ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा पश्यतामेव देवानां तत्रैवान्तर्धीयत तेऽपि देवानिरातङ्काः स्वाधिकारान्यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः दैत्याश्च देव्या निहते शुम्भे देवरिपौयुधि जगद्विध्वंसिनी तस्मिन् महोग्रे तुलविक्रमे निशुम्भे च महावीर्ये शेषाः पातालमाययुः एवं भगवती देवी सा नित्यापि पुनः पुनः सम्भूय कुरुते भूप जगतः परिपालनम् तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते सायाचिता च विज्ञानं तुष्टारिद्धिं प्रयच्छति व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टिर्भवत्यजा स्थितिं करोति भूतानां सैव काले सनातनी भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे सैवाभावे तथा लक्ष्मीर्विनाशायोपजायते स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिभिस्तथा ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॐ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये फल अस्तुतिर्नाम द्वादशो अध्यायः अथ श्री दुर्गा सप्तशती त्रयोदशो अध्यायः ध्यानम् ॐ बालार्कमण्डलाभासाम् चतुर्बाहुम् त्रिलोचनाम् पाशांकुश वराभीतिर् धारयन्तीं शिवां भजे। ओम ऋषिरुवाच एतत्ते कथितं भूप देवी माहात्म्यमुत्तमम् एवं प्रभावा सा देवी ययेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैहि महाराज शरणं परमेश्वरीं आराधिता सैव नृणां भोगस्वर्गापवर्गदा। मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः स नराधिपः प्रणिपत्य महाभागं तं ऋषिं शशितव्रतं निर्विण्णोति ममत्वेन राज्यापहरणेन च जगाम सद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बाया नदी पुलिन संस्थितः स च वैश्यस्तपस्तेऽपि देवी सूक्तं परं जपन् तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ ददतुस्तौ बलिं चैव निजगात्राश्रिगुच्छितम् एवं समाराधयतुस्त्रिभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका। देव्युवाच यत्प्रार्थ्यर्थे त्वया भूप त्वया च कुलनन्दन मत्तस्तप्राप्यतां सर्वं परितुष्टा ददामि तत्। मार्कण्डेय उवाच ततो वव्रे नृपो राज्यं विभ्रंशन्यजन्मनि अत्रैव च निजं राज्यं हतशत्रुबलं बलात् सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्। देव्युवाच स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् हत्वा रिपूनस्खलितं तव तत्र भविष्यति। मृतस्य भूयः सम्प्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाम मनुर्भवान् भुवि भविष्यति। वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः तं प्रयच्छामि संसिद्ध्यै तव ज्ञानम् भविष्यति। मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः सूर्याजन्म समासाद्य सावर्णिर्भविता मनुः एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः सूर्याजन्म समासाद्य सावर्णिर्भविता मनुः। क्लीं इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये सुरथवैश्ययोर्वरप्रदानं नाम त्रयोदशोऽध्यायः। अथ सिद्ध कुञ्जिका स्तोत्रम्। शिव उवाच, शृणु देवि प्रवक्ष्यामि कुञ्जिका स्तोत्रमुत्तमम्, येन मंत्र प्रभावेण चंडी जापः शुभो भवेत्। न कवचम् नार्गला स्तोत्रम् कीलकम् न रहस्यकम्, न सूक्तम् नापि ध्यानम् च, न न्यासो न च वार्चनम्। कुञ्जिका पाठ मात्रेण दुर्गा पाठ फलम् लभेत्। अतिगुह्यतरम् देवी देवानामपि दुर्लभम्। गोपनीयम् प्रयत्नेन स्वयोनिरिव पार्वती, मारणम् मोहनम् वश्यम् स्तम्भनोच्चाटनादिकम्। पाठमात्रेण संसिद्ध्येत् कुञ्जिका स्तोत्रमुत्तमम्। अथ मन्त्रः। ॐ ऐं ह्रीं क्लीं चामुण्डायै विच्चे, ॐ ग्लौं हूं क्लीं जूं सः, ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल। ऐं ह्रीं क्लीं चामुण्डायै विच्चे, ज्वल हं संलं क्षं फट स्वाहा। इति मन्त्रः। नमस्ते रुद्ररूपिण्यै, नमस्ते मधुमर्दिनी, नमः कैटभहारिण्यै, नमस्ते महिषार्दिनी, नमस्ते शुम्भहन्त्रै च निशुम्भासुरघातिनी। जाग्रतम् हि महादेवि, जपम् सिद्धम् कुरुष्व मे। ऐङ्कारी सृष्टिरूपायै ह्रीङ्कारी प्रतिपालिका, क्लीङ्कारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते। चामुण्डा चण्डघाती च यैकारी वरदायिनी, विच्चे चाभयदा नित्यम् नमस्ते मन्त्ररूपिणी। धाम धीम धूम धूर्जटेह पत्नी, वाम वीम वूम वागधीश्वरी, क्राम क्रीम क्रूम कालिका देवी, श्याम श्रीं शूं मे शुभम् कुरु। हुं हुं हुंकार रूपिण्यै जं 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 जम्भनादिनी, भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः। अङ्कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं, धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा। पां पीं पूं पार्वती पूर्णा, खां खीं खूं खेचरी तथा, सां सीं सूं सप्तशती देव्या, मन्त्रसिद्धिं कुरुष्व मे। इदं तु कुञ्जिका स्तोत्रं मन्त्रजागर्ति हेतवे, अभक्तेनैव दातव्यम् गोपितं रक्ष पार्वती। यस्तु कुञ्जिकया देवी हीनां सप्तशतीं पठेत्, न तस्य जायते सिद्धिरण्ये रोदनम् यथा। इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वती संवादे कुञ्जिकास्तोत्रम् सम्पूर्णम्। ॐ तत्सत्। क्षमा प्रार्थना। अपराध सहस्राणि क्रियन्ते हर्निशं मया, दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरी। आवाहनं न जानामि न जानामि विसर्जनम्, पूजां चैव न जानामि क्षम्यतां परमेश्वरी। మంత్రహీనం క్రియాహీనం భక్తిహీనం సురేశ్వరీ యత్ పూజితం మయా దేవీ పరిపూర్ణం తదస్తు మే. అపరాధశతం కృత్వా జగదంబేతి చోచ్చరేత్ యాం గతిం సమవాప్నోతి న తాం బ్రహ్మాదయః సురాః. సాపరాధోస్మి శరణం ప్రాప్తస్త్వాం జగదంబికే ఇదానీం అనుకంప్యోహం యథేచ్ఛసి తథా కురు. అజ్ఞానాద్విస్మృతిర్భ్రాంత్యా యన్యూనం అధికం కృతం తత్సర్వం క్షమ్యతాం దేవి ప్రసీద పరమేశ్వరీ. కామేశ్వరి జగన్మాత సచ్చిదానంద విగ్రహే గృహాణార్చామి మాం ప్రీత్యా ప్రసీద పరమేశ్వరీ. గుహ్యాతి గుహ్య గోప్త్రీ త్వం గృహాణాస్మత్కృతం జపం సిద్ధిర్భవతు మే దేవీ త్వత్ప్రసాదాత్ సురేశ్వరీ. శ్రీ దుర్గార్పణమస్తు.